योगाम् पुष्पम् वेद पुष्पवान् प्रजानाम् प्रजुणाम् भवति चन्द्रभावाम् पुष्पम् पुष्पवान् प्रजानाम् प्रजुणाम् भवति एवम् वेद योगामायतनम् वेद आयतनवान् भवति अग्निर्वा अपावायतनम् आयतनवान् भवति योऽग्नेरायतनम् वेद आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति एवम् वेद योऽपावायतनम् वेद आयतनवान् भवति वायुर्वा अपावायतनम् आयतनवान् भवति यो वायोरायतनम् वेद आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति यदेवम् वेद योपावायतनम् वेद आयतनवान् भवति अतो वै तपन्नपावायतनम् आयतनवान् भवति यो मुष्यतवत आयतनम् वेद आयतनवान् भवति आपो वा अमुष्यतवत आयतनम् आयतनवान् भवति यदेवम् वेद योपावायतनम् वेद आयतनवान् भवति चन्द्रभावा अपावायतनम् आयतनवान् भवति यश्चन्द्रवध आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रवध आयतनम् आयतनवान् भवति च एवम् वेद योपावायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपावायतनम् आयतनवान् भवति यो नक्षत्राणामायतनम् वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति त एवम् वेद योपावायतनम् वेद आयतनवान् भवति अर्घ्यम् योपा अपावायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनम् वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति त एवम् वेद योपावायतनम् वेद आयतनवान् भवति संवत्सरो वा अपावायतनम् आयतनवान् भवति यस्संवत्सरस्यायतनम् वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवम् वेद योऽप्सुनाभम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति राजाधिराजाय प्रत्यक्षभागिने नमो वयम् वै श्रवणाय कुर्महे समेकामाम् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु सुमेलाय वै श्रवणाय महाराजाय नमः।